इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् केन्द्रीय आयव्यय संकल्पनापत्रम् मानव केन्द्रितमस्ति तथा च नूतनैः परिष्कारैः भारतस्य आधारं सुदृढं करोति इति। प्रधानमन्त्री एतत् ऐतिहासिकम् अपि च देशस्य परिष्कार मार्गस्य दीर्घकालिक वृद्धेः च प्रेरकम् इत्यपि वर्णितवान्। आयव्यय संकल्पनापत्रस्य प्रस्तुतीकरणस्य अनन्तरम् एकस्मिन् वक्तव्ये श्रीमोदी अवदत् यत् एते प्रस्तावाः अर्थव्यवस्थां ऊर्जां प्रदास्यन्ति, नागरिकान् सशक्तं करिष्यन्ति तथा च भारतस्य युवभ्यः नूतनम् औन्नत्यं प्राप्तुं नूतनम् अवसरं प्रददाति। सर्वकारस्य परिष्कार कार्य सूचीं रिफॉर्म एक्सप्रेस इति सम्बोधयन् प्रधानमन्त्री अवदत् यत् अद्य भारतं यस्मिन् परिष्कार याने अस्ति तस्मै अनेन आयव्यय संकल्पनया नूतनाम् ऊर्जां नूतनां गतिं च मिलिष्यति।
ये बजट अपार अवसरों का राजमार्ग है। ये बजट वर्तमान के सपनों को साकार करता है और भारत के उज्जवल भविष्य की नींव को सशक्त करता है। ये बजट 2047 के विकसित भारत की हमारी ऊंची उड़ान का मजबूत आधार है।
वित्तमन्त्री निर्मला सीतारामनः 26-27-2017 केन्द्रीय आयव्यय संकल्पनापत्रम् उपस्थापितवती, यस्मिन् विनिर्माणस्य अवसंरचनायाः वृत्त्यावसरस्य च कृते प्रबलं प्रोत्साहनं प्रदत्तमस्ति तथा च सरलकरस्य सीमाशुल्कस्य च व्यवस्थायाः प्रस्तावः वर्णितः अस्ति। संसदि निरन्तरं नवमं वारम् आयव्यय संकल्पनापत्रस्य प्रस्तावे श्रीमती सीतारामनः वैश्विक अनिश्चिततायां विकासं स्थिरीकर्तुं बहुपक्षीय कार्यनीतिं निरूपितवती, यस्मिन् देशीय इलेक्ट्रॉनिक्स तथा सेमीकंडक्टर क्षमतानां विस्तारः आधारभूत संरचना परियोजनायाः संकट निवारणं भारतस्य युवभ्यः उदयोन्मुख प्रौद्योगिकीनां कृते कौशलं प्रदातुं करदातृणां आयातकानां च अनुपालनं सुकरं कर्तुं च अन्तर्भवन्ति। एकः प्रमुखः संरचनात्मकः परिष्कारः अस्य आयकर विधि नियमेन 20-25 इत्यनेन सह आगच्छति यत् अस्य वर्षस्य अप्रैल मासस्य एकदिनांकात् प्रभावि भविष्यति इति, यस्मिन् सरलतायाः नियमाः पुनः प्रकल्पिताः प्रपत्राः च सन्ति। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य आरभ्य ओडिशा छत्तीसगढ राज्ययोः 6-दिवसीय यात्रायां भविष्यति। भ्रमणावधौ राष्ट्रपतिः बालासोर नगरे फकीर मोहन विश्वविद्यालयस्य दीक्षांत समारोहे भागं गृह्य तस्य नवनिर्मितस्य प्रेक्षागृहस्य उद्घाटनं करिष्यति। बुधवासरे राष्ट्रपतिः भंजवीर सुनाराम सोरेन वर्यस्य प्रतिमायाः अनावरणं करिष्यति तथा च रायरंगपुरस्य माहुल डीहा नगरस्य सर्वकारीय बालिका उच्च माध्यमिक विद्यालये छात्रैः सह संवादं करिष्यति। सा सर्वकारीय आयुर्वेद चिकित्सकीय महाविद्यालयस्य तथा चिकित्सालयस्य OUAT परिसरस्य सरसन्धान केन्द्रस्य नगर सौन्दर्यीकरणादीनां विविध परियोजनानां उद्घाटनं शिलान्यासं च विधास्यति। राष्ट्रपतिः अस्य मासस्य 6-दिनांके सिमलीपाल नगरे आदिवासी समुदायानां महिलाभिः युवभिः च संवादं विधास्यति। सा भुवनेश्वर नगरे ग्लोबल एंड टेक्नोलॉजी नेटवर्क इत्यस्य सहयोगेन ओडिशा सर्वकारेण आयोजिते ब्लैक स्वान समिट इंडिया इत्यस्मिन् अपि भागं भजिष्यति। अद्य राष्ट्रपतेः अभिभाषणस्य कृते संसदः उभयोः सदनयोः धन्यवाद प्रस्तावः भविष्यति। केन्द्रीयमन्त्री तथा भाजपेति दलस्य सांसदः सर्बानन्द सोनोवालः लोकसभायां प्रस्तावम् उपस्थापयिष्यति, तस्य दलस्यैव सांसदः तेजस्वी सूर्या च प्रस्तावम् अनुमोदयिष्यति इति वार्ताः।